अथ सिद्धकुञ्जिका स्तोत्रम् शिव उवाच शृणु देवी प्रवक्ष्यामि कुञ्जिका स्तोत्रमुत्तमम् शृणु देवी प्रवक्ष्यामि कुञ्जिका स्तोत्रमुत्तमम् येन मन्त्रप्रभावेण येन मन्त्रप्रभावेण चण्डी जापः शुभो भवेत् न कवचम् नार्गला स्तोत्रम् कीलकम् न रहस्यकम् न सूक्तम् नापि ध्यानम् च न न्यासो न च वार्चनम् पाठ मात्रेण दुर्गा पाठ फलम् लभेत् अतिगुह्यतरम् देवी देवानामपि दुर्लभम् गोपनीयम् प्रयत्नेन स्वयोनिरिव पार्वती मारणम् मोहनम् वश्यम् स्तम्भनोच्चाटनादिकम् पाठमात्रेण संसिद्धयेत् कुञ्जिका स्तोत्रमुत्तमम्
कुञ्जिकया देवी हीनां सप्तशती पठे नतस्य जायते सिद्धिः अरण्ये रोदनम् यथा।
इति श्री रुद्रयामले गौरीतन्त्रे शिवपार्वती संवादे कुञ्जिकास्तोत्रम् सम्पूर्णम्। ॐ तत्सत्।